नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तप्रयोगे, तत्र प्रेरणार्थकनिचि वाक्यसन्दर्भे व्यवस्था कथम् अस्ति इति विषयः अस्ति. वयं जानीमः यत्र धातुतः प्रेरणार्थे निच् विधीयते तत्र कर्ताद्वयं भवति. एकः अस्ति प्रयोजककर्ता, अन्यः अस्ति प्रयोज्यकर्ता इति. तर्हि वाक्यसन्दर्भे धातुतः यदा प्रेरणार्थे निच् विधीयते तर्हि कर्ताद्वयं विद्यते. अनयोः वाक्यसन्दर्भे तयोः विभक्तिः का भवति? प्रयोजककर्तुः विभक्तिः का, प्रयोज्यकर्तुः विभक्तिः का इत्येव चिन्तनं प्रवर्तमानमस्ति. तर्हि तत्र एकं करपत्रं मया प्रेषितं खलु, तत् कृपया उद्घाटयन्तु. यत्र ध्वनिमुद्रणानि भवन्ति तत्र मया स्थापितमस्ति, पश्यन्ति वा?
आम्.
अस्तु महोदय, भवान् एव आरम्भतः एकवारं पठतु.
कुतः आरम्भतः वा?
आरम्भतः निजन्तप्रयोगे.
निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं. निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते केषुचित् अर्थेषु. तदा कर्मत्वं विधीयते इति ज्ञातुं गतिबुद्धिप्रत्यवसनावसानार्थशब्दकर्माकर्मकाणामिनि कर्तासणौ इति सूत्रं पठनीयम्. सूत्रस्य व्याख्यानमपि पठामि वा?
कृपया.
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामिनि कर्तासणौ. गत्यर्थानां, बुद्ध्यर्थानाम् इत्युक्ते ज्ञानार्थानां, प्रत्यवसानार्थानाम् इत्युक्ते भोजनार्थानां, शब्दकर्मकाणाम् अकर्मकाणाञ्च धातूनाम् अण्यन्तावस्थायां यः कर्ता, सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति. गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धिप्रत्यवसनानि, तानि अर्थाः येषां ते गतिबुद्धि प्रत्यवसनार्थाः धातवः. शब्दः कर्म येषां ते शब्दकर्मः, अविद्यमानं कर्म येषां ते अकर्मकाः. गतिबुद्धिप्रत्यवसनार्थाश्च शब्दकर्मणश्च अकर्मकश्च ते गतिबुद्धिप्रत्यवसनार्थशब्दकर्माकर्मकास्तेषां. णिः अणिः अणौ कर्ता अणिकर्ता. गतिबुद्धिप्रत्यवसनार्थशब्दकर्माकर्मकाणां षष्ठ्यन्तम् अणिकर्ता प्रथमान्तं, स प्रथमान्तं, णौ सप्तम्यन्तम् अनेकपदमिदं सूत्रं. कर्तुरीप्सितमं ईप्सिततमं कर्म इत्यस्मात् कर्म इति पदस्य अनुवृत्तिः भवति. कारके इति सूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रं. गतिबुद्धिप्रत्यवसनार्थशब्दकर्माकर्मकाणां कर्मकाणाम् अणीकर्तासणौ कर्मकारकम् इत्युक्ते अत्र यत् यथा भवती उक्तवती, अत्र णिच् प्रेरणार्थे णिच् प्रयोगे अत्र प्रयोजककर्ता अस्ति, प्रयोज्यकर्ता अपि अस्ति. प्रयोज्यकर्तुः विभक्ति का इत्यस्य निर्णयनार्थम् एकं सूत्रम् अस्ति. एतेन सूत्रेण प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति. तत्पश्चात् द्वितीय कर्मणि द्वितीया इति सूत्रेण तत्र तस्य द्वितीयाविभक्तिरूपं भवति निच्प्रयोगे. तु सूत्रमस्ति गतिबुद्धिप्रत्यवसा.
कीदृशसूत्रमस्ति? कीदृशसूत्रम्?
एतत् सूत्रं संज्ञासूत्रमस्ति.
संज्ञासूत्रमस्ति. अनेन कीदृशसंज्ञा भवति?
अनेन कर्मसंज्ञा भवति.
कर्मसंज्ञा भवति, समीचीनम्.
तु अत्र सूत्रं वदति कतिचन धातवः सन्ति, कतिचन विशेषाः धातवः येषां विशेष अर्थविशेषमस्ति. तो ये ये धातवः गमन गत्यर्थे अस्ति, गत्यर्थे सन्ति, यथा गम् धातु, ये धातवः ज्ञानार्थे सन्ति यदा बुद्ध अथवा अवगमनं एतेषु अर्थेषु ये धातवः भोजनार्थे सन्ति यथा भक्षणे अथवा भुङ्क्ते इत्यादीनि एतादृशाः धातवः ये धातवः यस्य कर्म शब्दरूपे भवति यथा शास्त्रम् अथवा न शास्त्रं न तस्य उदाहरणं झटिति न आगच्छति
कथा अथवा वार्ता
कथा अस्तु वार्ता धन्यवादः अपि च अकर्मकधातवः अकर्मकधातवः इत्युक्ते यस्य कर्म न भवति यदा हसति इति वदामः चेत् तत्र तस्य धातोः कर्म न कर्मपदं न भवति तु एतेषां धातूनां यदा अन्यन्त अवस्थायां यः कर्ता भवति इत्युक्ते यदा धातोः णिच् विहाय धातोः उपदेश अवस्थायां यः कर्ता भवति सः धातोः
शुद्धधातोः
यः कर्ता भवति सः णिच् णिजन्तधातोः कर्म धातोः कर्मसंज्ञां प्राप्नोति.
समीचीनं. तर्हि अत्र सूत्रं पश्यति चेत् गति बुद्धि प्रत्यवसानार्थ इति अस्ति प्रथमं. तर्हि गति बुद्धि प्रत्यवसानानि गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धि प्रत्यवसानानि इति तत्र द्वन्द्वसमासः अस्ति. तस्य द्वन्द्वस्य अन्ते अर्थः इति शब्दः अस्ति. गतिबुद्धि प्रत्यवसानार्थ तर्हि अर्थः इति शब्दः द्वन्द्वस्य अन्ते अस्ति इति कृत्वा प्रत्येकम् अभिसम्पद्यते. इत्युक्ते गति इत्यनेन सह सम्बन्धः, बुद्धि इत्यनेन सह सम्बन्धः, प्रत्यवसानः इत्यनेन सह सम्बन्धः. अतः गत्यर्थकः, बुद्ध्यर्थकः, प्रत्यवसानार्थकः. तदनन्तरं शब्दकर्म यत्र तादृशदातवः यस्य कर्म अस्ति शब्दः कर्मरूपेण अस्ति तादृशदातवः अनन्तरम् अकर्मकदातवः इति तत्र विभजनमस्ति. तर्हि गतिबुद्धिप्रत्यवसानार्थश्च शब्दकर्म कर्मणश्च अकर्मकश्च इति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाः येषां ते इत्युक्ते तादृशदातवः तत्र यः कर्ता अण्यन्त अवस्थायां यः कर्ता सः यन्तवस्थायां कर्म भवति. अस्तु, सूत्रं स्पष्टं खलु
भगिनी? एकः प्रश्नः अत्र शब्दकर्म येषां ते शब्दकर्मणः इति अस्ति खलु तेषां धातुसंज्ञा कथं भवति?
केषां धातुसंज्ञा?
शब्दकर्मणः शब्दकर्मणः
इत्युक्ते यः कोऽपि धातुः इदानीम् अहं कथां पठामि इति वदामि चेत् पट् धातोः कर्म किं? कथा खलु, कथा इति शब्दरूपेण अस्ति. अतः यः कोऽपि धातुः भवितुमर्हति शब्दकर्मरूपेण.
ओ, तथैव धातुः इति नास्ति?
न, धातोः उल्लेखः नास्ति. यदि कर्म शब्दरूपेण कर्म अस्ति तादृशधातुः. सर्वेषां धातूनां शब्दः कर्मरूपेण भवितुं अर्हति खलु?
सत्यं, तदेव.
इत्युक्ते तादृशधातवः यस्य शब्दः कर्मरूपेण भवितुम् अर्हति.
तत्रापि तादृशधातुः. ओके, अस्तु.
अत्र धातोः एव उल्लेखः अस्ति सर्वत्र.
अस्तु,
सूत्रं स्पष्टमस्ति चेत् इदं तु विशिष्टसूत्रमस्ति. कर्मसंज्ञाविधानार्थं विशिष्टसूत्रमस्ति. केवलं प्रेरणार्थे निच् अस्य सूत्रस्य कार्यं, चुरादिगणे निच् यदा विद्यते तदानीम् अस्य सूत्रस्य कार्यं नास्ति. अत्र णौ कर्मकारकम् इत्यत्र अनुवृत्तिसहितसूत्रे गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणीकर्ता स णौ कर्मकारकं. णौ इत्यत्र प्रेरणार्थे णौ हेतुमति इत्यनेन यः णिच् विधीयते तस्यैव ग्रहणम् अत्र. अस्तु, अग्रे लक्ष्मीभगिनी भवती एव पठतु.
आं भगिनी, पठामि. अस्मिन् सूत्रे नौ इत्यनेन हेतुमति च इति सूत्रेण यः निच् प्रत्ययः विधीयते तस्य ग्रहणं भवति. निच् प्रत्ययः यथा स्वार्थे भवति तथैव प्रेरणार्थे अपि भवति. प्रेरणार्थे निच् प्रत्ययः प्रायः सर्वेभ्यः धातुभ्यः भवति, यथा पठति पाठयति, अत्र पठनार्थं प्रेरयति. एतादृशेषु प्रयोगेषु प्रेरणार्थे निच् प्रत्ययः आगतः. निच् प्रत्ययः विधानानन्तरं धातुः ण्यन्तः भवति. निच् प्रत्ययात् पूर्वं धातुः अण्यन्तः अस्ति, यथा देवदत्तः पठति, पठ् धातुः अण्यन्तः अस्ति.
अत्र मया परिष्कृतमस्ति, देवदत्तः पाठं पठति, नूतनकरपत्रमस्ति इदानीं, गतवर्गस्य नास्ति. अत्र यत्र अस्माकं ध्वनिमुद्रणानि भवन्ति खलु तत्र 08 इत्यत्र
केवलं तदेव परिष्कृतवती खलु भगिनि?
न न, बहु किमपि अस्ति. बहु
अस्तु, अहं प्रिण्ट् औट् स्वीकृतवती पुनरेकवारं.
प्रिण्ट् औट्
निजन्तः, अत्र निजन्तप्रयोगे अस्माकं ध्वनि मुद्रण पृष्ठे अस्ति.
अस्तु, अस्ति वा भगिनि इदानीं भवत्याः पार्श्वे?
उद्घाटयामि एकक्षणं.
धन्यवादः भगिनि. अत्र चाट् मध्ये
पठामि. यथा देवदत्तः पाठं पठति, पट् धातुः अण्यन्तः अस्ति, आचार्यः देवदत्तेन पाठं पाठयति. निच् प्रत्ययस्य विधानानन्तरं पाटी इति धातुः ण्यन्तः भवति. निजन्तयुक्ते वाक्ये कर्तृपदद्वयं दृश्यते. यः प्रेरकः भवति सः प्रयोजककर्ता, यः प्रेरितः भवति सः प्रयोज्यकर्ता इति उच्यते. वदानि वा भगिनि?
वदतु, वदतु.
अस्मिन् सूत्रे गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ता स नौ कर्मकारकम् इति स अनुवृत्तिसहितसूत्रमस्ति. तस्य सूत्रे निच् नि इति नौ इति अस्ति. नौ इत्यस्य निच् प्रत्ययविधानम् अस्य अर्थः अस्ति. अस्माकं प्रसङ्गे हेतुमती च इति सूत्रेण वयं ज्ञातुं शक्नुमः निच् प्रत्ययस्य विधानं भवति. निच् निजन्तप्रयोगे हेतुमती च इत्यनेन प्रेरकार्थक्रियायां क्रियायाः परं निच् प्रत्ययः विधीयते, तस्य ग्रहणं भवति. स्वार्थे निच् तत्र अन्येन सूत्रेण तस्य निच् प्रत्ययस्य विधानं भवति, किन्तु प्रेरणार्थे निच् प्रत्ययस्य विधानम् एतत् हेतुमति च इति सूत्रेण भवति. तस्य अर्थः भवति यः कोऽपि धातुः भवेत् तत्र तस्य प्रेरकार्थः प्रयोगः कर्तुं शक्नोति हेतुमति च इति सूत्रेण निच् विधानेन. यथा पठति इति पाठयति इति रूपं भवति. निच् प्रत्ययस्य विधानानन्तरं धातुः, सः धातुः ण्यन्तः इति ण्यन्तः इति भवति. पूर्वम् अण्यन्तः आसीत्, यथा निच् प्रत्ययस्य पूर्वं सः धातुः अण्यन्तः इति अस्ति. निच् विधानानन्तरं सः ण्यन्तः, चेत् नकारः अन्ते भवति इति कृत्वा ण्यन्तः इति संज्ञा भवति.
नकारः अन्ते भवति इति नास्ति,
ण्यन्तः प्रत्ययः.
क्षम्यतां,
निच् प्रत्ययः अन्ते अस्ति इति कृत्वा ण्यन्तः. निच् विधानात् पूर्वम् अण्यन्तः इति अस्ति. उदाहरणं देवदत्तः पाठं पठति, अत्र पठ् धातोः अण्यन्तरूपम् अस्ति, यतोहि अत्र निच् प्रत्ययः न विधीयते, अतः पठ् धातु अण्यन्तरूपमस्ति. इदानीम् आचार्यः देवदत्तेन पाठं पाठयति इति वदामः चेत् अत्र णिच् पाठयति इत्यस्मिन् णिच् प्रत्ययः अस्ति, अतः पाठि इत्यस्य ण्यन्तरूपम् अस्ति अत्र. इत्युक्ते यत्र णिजन्तप्रयोगः अस्ति तत्र कर्ता द्वयं भवति, यः प्रेरकः अस्ति सः प्रयोजककर्ता इति वक्तुं शक्नुमः, द्वितीयः कर्ता यः प्रेरितः सः प्रयोज्यकर्ता इति नाम्ना उच्यते.
अत्र अस्माकं शुद्धदातुं स्वीकृत्य वाक्यं किम् अस्ति?
देवदत्तः पाठं पठति.
देवदत्तः पाठं पठति इति सामान्यवाक्यमस्ति. इदानीं निजन्तवाक्यं तत्र प्रयोजककर्ता कः?
निजन्तवाक्ये प्रयोजककर्ता आचार्यः इति अस्ति. आचार्यः प्रयोजककर्ता, सः प्रेरयति. देवदत्तः कार्यं करोति, सः प्रेरितः अस्ति, अतः देवदत्तः इदानीं प्रयोज्यकर्ता अस्ति.
प्रयोज्यकर्ता. एकं स्मर्तव्यं, प्रयोज्यकर्तुः अत्र प्रेरणार्थे निचि प्रयोज्यकर्तुः विभक्तिद्वयमेव भवितुमर्हति. प्रयोज्यकर्तुः तृतीया भवति नो चेत् द्वितीया.
किन्तु भगिनी अत्र कर्मत्वं न विधीयते वा अस्माकं सूत्रानुसारं? देवदत्तम् इति न भवति वा?
किमर्थं, केन, कस्य आधारेण?
अत्र वयं गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्म
कीदृशधातुः अस्ति?
पठधातुः इदानीं बुद्ध्यर्थकधातुः खलु
इति अस्माकं भ्रमः. अस्माकं प्रयोगे पटधातुः बुद्ध्यर्थकः इति वयं चिन्तयामः, परन्तु पटधातोः अर्थः कः? व्यक्तायां वाचि इति अर्थः. पटधातोः अर्थः व्यक्तायां वाचि इति अस्ति, इत्युक्ते टु रीड्, टु स्टडि, टु रिसैट्, टु लर्न् इति अर्थे अस्ति. अत्र ज्ञान अर्थे नास्ति धातुः.
किन्तु अत्र पाठम् इति
न, एकक्षणम् लक्ष्मीभगिनी समापयतु.
हा, यत्र पाठम् इति शब्दकर्मः कर्मणः अस्ति खलु, तस्य इदानीं धातुः पाठयति इति भवति चेत्
पाठः इति शब्दकर्मः अस्ति इति कथम्?
पाठम् इति द्वितीय कर्मसंज्ञा भवति खलु, शब्दः एव इदानीं कर्म अस्ति.
पाठः शब्दः एव इति कथं वक्तुं शक्यते? पाठः शब्दः एव. शब्दः इत्युक्ते कीदृशः इति चेत् अत्र सामान्यतया कथा अथवा वार्ता अथवा किमस्ति तत्र पद्यं, गद्यं, श्लोकः इति तादृशमेव तत्र शब्दकर्म, यत्र साक्षात् शब्दः भवति. परन्तु पाठम् इत्यत्र शब्दः इति न वक्तुं शक्यते.
किमर्थं?
पाठः इत्युक्ते यः कोऽपि पाठः भवितुम् अर्हति. पाठः इत्युक्ते तत्र नृत्यपाठः अपि भवितुम् अर्हति, यः कोऽपि पाठः भवितुम् अर्हति. शब्दः इति न वक्तुं शक्यते. यदि अहं पुस्तकात् किमपि मनसि एव पठामि तत्र शब्दकर्म नास्ति. शब्दकर्म इत्युक्ते तादृशदातवः यत्र साक्षात् शब्दः भवति, यथा कथा अथवा वार्ता, तादृशः एव दातवः शब्दकर्म, यः कोऽपि धातुः नास्ति. अतः पाठं पठामि इति वदामि चेत् तत्र पाठः इति शब्दकर्म इति नास्ति. शब्दकर्म इति साक्षात् इदानीम् अहं वदामि आचार्यः देवदत्तं वेदपाठं पाठयति इति वदामि चेत् तदानीं हास्तु शब्दकर्म अस्ति. यदि यदा अहं वदामि श्लोकपाठं पाठयति तदानीं शब्दकर्म अस्ति, परन्तु केवलं पाठम् इति वदामि चेत् शब्दकर्म अस्ति इति न.
भगिनी क्षम्यताम्, अहं ध्वनिमुद्र पुटात् करपत्रम् उद्घाटितवान्, परन्तु अत्र मम करपत्रे आचार्यः देवदत्तं पाठयति एव अस्ति. तो
न, अत्र अन्तिमकरपत्रं तत्र केवलं अत्र चाट् मध्ये सावित्री भगिनी प्रेषितवती, पश्यतु तत् स्वीकरोतु.
क्षम्यताम्, अहं केवलम् अत्र मम अहम् आप् मध्ये न अस्मि अत्र.
अस्तु अस्तु, तर्हि अहम् इदानीमेव प्रेषयामि, पश्यतु. अस्तु, इदानीं किं तत्र सुमन् भगिनी प्रश्नः वा?
ध्वनिमुद्रणे मुद्राणि सन्ति खलु, तत्र अन्तिम करपत्रं सम्यक् खलु?
तदेव
तदेव तदेव उद्घाटितवान्,
अन्ते अस्ति खलु, तत्र तत्र करपत्रं किमपि नास्ति, केवल तत्र रेकार्डिङ्ग् किमपि नास्ति, रेकार्डिङ्ग् किमपि नास्ति, तत्र ब्लाङ्क् रेकार्डिङ्ग् अस्ति, तस्य अनन्तरं करपत्रं स्क्रीन् रिफ्रेश् करोतु.
तस्य अभिज्ञानं कथं ज्ञातुं शक्नुमः इदानीं?
कस्य अभिज्ञानं?
पाठं, श्लोकपाठम् इति वदामः चेत् तत्र शब्दकर्मणः भवति इति पर्टिक्युलर्,
यत्र आम्बिग्विटि अस्ति तत्र वक्तुं न शक्यते इति एव अहं वदामि. यत्र स्पेसिफिक् अस्ति तत्रैव वक्तुं शक्नोमि. इदानीं श्लोकं पाठयति इति वदति चेत् शब्दकर्म इति साक्षात् अवगन्तुं शक्नोमि, परन्तु केवलं पाठः इति वदति चेत् शब्दकर्म इति अवगन्तुं न शक्यते. यदि शब्दकर्म अस्ति चेत् वेदपाठं पाठयति इति वक्तव्यं स्पष्टतया, नो चेत् पाठः इत्युक्ते साक्षात् शब्दकर्म इति तत्र अजम्प्शन् मास्तु.
अस्तु,
यतोहि अत्र अस्मिन् सूत्रे शब्दकर्म इत्युक्ते विशेषरूपेण स्वीकृतः अस्ति.
अस्तु,
अतः शब्दकर्म इत्युक्ते केवलं यस्य शब्दः एव कर्मरूपेण भवति. अस्तु
भगिनि, तर्हि अत्र केवलम् अत्र आचार्यः देवदत्तेन पाठं पाठयति यत्र इत्यत्र केवलं णिजन्तप्रयोगे कर्ता द्वयमस्ति इति एव उदाहरणमस्ति खलु?
कर्ताद्वयमिति एव उदाहरणमस्ति. अपि च किम् अवगन्तव्यम् इति चेत् प्रयोजकर्तुः तृतीया भवति, नो चेत् द्वितीया भवति, तावदेव, अन्यत् किमपि नास्ति. अस्तु, इदानीम् अग्रिमम् अस्ति, शङ्करन् महोदय पठति वा, शिष्यः लिखति? वेङ्कटेश महोदय प्राप्तं वा?
आं प्राप्तं मया, धन्यवादः.
अस्तु, शङ्करन् महोदय
पठामि. श्रूयते खलु भगिनि?
श्रूयते.
शिष्यः लिखति इति अन्यन्त अवस्थायां वाक्यं, ण्यन्त अवस्थायां तदेव वाक्यम् एवं भवति. अध्यापकः शिष्येन पाठं लेखयति. अत्र अध्यापकः प्रयोजककर्ता, शिष्यः प्रयोज्यकर्ता अस्ति. नाम अन्यन्त अवस्थायां यः कर्ता शिष्यः, सः कर्ता ण्यन्त अवस्थायां प्रयोज्यकर्ता भवति. ण्यन्त अवस्थायां यः कर्ता अध्यापकः, सः प्रयोजककर्ता भवति. अस्तु, इदानीम् अस्माकम् उदाहरणमस्ति, शिष्यः लिखति इति अन्यन्त अवस्थायां वाक्यमस्ति. अतः अत्र अस्मिन् अनः अतः शिष्यः अत्र कर्ता, अन्यन्त अवस्थायां शिष्यः कर्ता, ण्यन्त अवस्थायां तदेव वाक्यम्, अध्यापकः शिष्येन पाठं लेखयति इति. अतः ण्यन्त अवस्थायाम् अध्यापकः शिष्यं पाठं लेखयितुं प्रेरयति इति अत्र अनेन वयम् अवगच्छामः. यतः अध्यापकः प्रेरयति, सः प्रयोजककर्ता. पुनः अन्यन्त अवस्थायां यद् वाक्यम् आसीत् तत्र शिष्यः कर्ता आसीत्. अतः सः अत्र ण्यन्तवस्थायाम् अध्यापकः शिष्येन पाठं लेखयति इति वाक्ये तस्य कर्तुः विभक्ति तृतीयाविभक्ति भवति. तृतीयाविभक्ति विभक्त्या कर्तुः अत्र तस्य उल्लेखः भवति. अतः ण्यन्तवस्थायां यः कर्ता अध्यापकः अस्ति, सः प्रयोजककर्ता भवति. पुनः यः अन्यन्त अवस्थायां कर्ता शिष्यः कर्ता अस्ति, सः ण्यन्त अवस्थायां प्रयोज्यकर्ता भवति. तृतीयाविभक्त्या तस्य उल्लेखः भवति. तावद्
समीचीनम्. इत्युक्ते अत्र सामान्यतया प्रयोज्यकर्तुः तृतीया भवति इति सामान्यव्यवहारः, परन्तु विशेषः यत्र अस्ति, गत्यर्थकः, बुद्ध्यर्थकः, प्रत्यवसानार्थः, शब्दकर्म अथवा अकर्मक विशेषः अस्ति चेत् तदानीं द्वितीयाविभक्तिः भवति इति सामान्यव्यवहारः. अत्र लिक् धातुः तादृशधातुः अस्ति वा?
अत्र लिक् धातुः पुनः अत्र पाठं नास्ति. सूत्रे गति बुद्धि इति सूत्रे निर्दिष्टानां कर्म अत्र नास्ति,
शब्दकर्म नास्ति, अपि च लिग् धातुः अपि तादृशः नास्ति.
आम् आम्
अस्तु, समीचीनं. तर्हि अग्रे मेहुल् महोदय अग्रे पठतु.
आं भगिनि, अनेन इति अस्ति वा तत्र, अनने इति अनेन अनेन गतिबुद्धिप्रत्यवसानार्थ शब्दकर्माकर्मकाणाम् अणि कर्ता सणौ इति सूत्रेण सर्वेषां धातूनाम् अन्यन्तावस्थायां यः कोऽपि कर्ता अस्ति सः कर्मसंज्ञकः न भवति अन्यन्त्यावस्थायाम्, अपि तु केवलं केषाञ्चन धातूनाम् एव यः कर्ता अन्यन्तावस्थायां सः कर्मसंज्ञकः भवति अण्यन्त्यावस्थायां. ते धातवः के इति सूत्रेण एव उक्तमस्ति. गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानाम् इत्युक्ते भोजनार्थानां शब्दकर्मकाणाम् अकर्मकानां च धातूनाम् अण्यन्तावस्थायां यः कर्ता सः अण्यन्तावस्थायां कर्मसंज्ञकः भवति. नाम धातुपाठे ये धातवः गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः, तेषां सर्वेषां ग्रहणम् अनेन सूत्रेण भवति, येन प्रयोज्यकर्ता कर्मत्वं प्राप्नोति. अस्तु, अत्र पुनः तदेव उल्लेखितमस्ति, अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्तासणौ इति सूत्रेण वयं जानीमः अत्र केषाञ्चन धातूनाम् एव ये अर्थे ये धातवः सन्ति तेषामेव ण्यन्त अवस्थायां कर्मसंज्ञकः कर्मसंज्ञा भवति. तर्हि यः कोऽपि धातु अणिजन्त अवस्थायां कर्ता अस्ति तस्य णिजन्त अवस्थायां पुनः कर्मसंज्ञा भवति इति नास्ति, परन्तु एतस्मिन् सूत्रे ये धातवः उक्ताः सन्ति तेषामेव धातूनामेव अण्यन्त अवस्थायाम् इत्युक्ते णिजन्त अवस्थायां नास्ति चेत् तत्र यः कर्ता अस्ति स एव कर्ता णिजन्त अवस्थायां कर्मसंज्ञा प्राप्नोति. तर्हि ते धातवः के इति अत्र उल्लेखितमस्ति, गत्यर्थकाः, बुद्ध्यर्थाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थाः इत्युक्ते भोजनार्थाः, शब्दकर्मकाणामपि च अकर्मकाणां धातूनाम् एव एतेन सूत्रेण तेषामेव ग्रहणं भवति, यत्र णिजन्त अवस्थायां ये यः अणिजन्त अवस्थायां यः कर्ता आसीत् तस्य एव णिजन्त अवस्थायां प्रयोज्यकर्ता इति कर्मत्वं प्राप्नोति. अतः तदेव प्रयोज्यकर्ता भवति यस्य कर्मत्वं भवति णिजन्त अवस्थायां.
समीचीनम्. अस्तु, अग्रे वंशी भगिनि अग्रे.
धन्यवादः. आं
भगिनि पठामि. गम् इण् इत्यादयः धातवः गत्यर्थकाः, बुद्ध ज्ञा विद् इत्यादयः धातवः ज्ञानार्थकाः सन्ति. प्रत्यवसानम् इत्यस्य अर्थः भक्षणम् इति. भक्ष अष् अद् भुज् इत्यादयः धातवः भक्षणार्थकाः सन्ति. शब्दकर्मकाः नाम तादृशधातवः यस्य कर्म शब्दः. अकर्मकधातुः नाम तादृशधातुः यस्य फलव्यापारयोः आश्रयः एकः एव भवति. एतेषां गत्यर्थकानां, बुद्ध्यर्थकानां, शब्दकर्मकाणाम्, अकर्मकाणांश्च धातूनां यः कर्ता अन्यन्तावस्थायां सः कर्ता प्रेरणार्थकक्रियायां कर्म भवति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा अकर्मकाणाम् अणिकर्तासनौ इति सूत्रं केवलम् उक्तानां परिगणितानां धातूनां कृते एव कार्यं करोति इति स्मर्तव्यम्. अस्तु, तत्र गत्यर्थक धातु के इत्युक्ते गम् इति गच्छति इति लट् रूपमस्ति, इण् इति इन् गतौ इति एति इति रूपं भवति अहं चिन्तयामि. हा, अगत्यर्थकधातुः भवन्ति. तत्र ज्ञानार्थकधातुः धातुः के इत्युक्ते भुत् बोधति, ज्ञा इति जानाति, विद् इति विद् किं
वेत्ति
वेत्ति असत्यं वेत्ति इति लट् रूपं भवति. एतेषां धातूनां एते धातवः ज्ञानार्थकधातवः इति सूत्रे इति उच्यते.
उदाहरणं दृष्ट्वा बुद्ध ज्ञा विद् इति दृष्ट्वा वयम् अवगन्तुं शक्नुमः ज्ञाने इत्यस्मिन् अर्थे ये दातवः, अपि च अवगमने इत्यस्मिन् ये दातवः ते दातवः एव ज्ञानार्थकाः न तु यः कोऽपि दातुः
हा पठनम् इत्युक्ते किमपि पठनस्य कार्यं पठने कार्यं भवति परन्तु यदा बुद्धिज्ञानार्थं भवति तदेव तत्र अतः ज्ञानार्थकाः सन्ति इति नाम तत्रापि भवति भगिनि पठनार्थः इति न उक्तं किल तत्र यत्र ज्ञानं
यदि वयं वक्तुं शक्नुमः पठने अपि ज्ञानमेव खलु इति वक्तुं शक्नुमः परन्तु अस्मिन् सूत्रे तादृशविवक्षा नास्ति अस्मिन् सूत्रे बुद्ध्यर्थकः इत्युक्ते साक्षात् ते एव दातवः ये ज्ञानार्थे सन्ति अथवा ये दातवः अवगमनार्थे सन्ति
अस्तु प्रत्यवसानम् इत्यर्थः अर्थः भक्षणमिति खादनं खादितुम् इति भवितुम् अर्हति पक्षति भक्षति अश्यति अश्नाति वा अश्नति
अश्नाति
अद् इति अत्थि भवति भुज् इति भुङ्क्ते इति भवति एते धातवः भक्षणार्थकधातवः सन्ति शब्दकर्माकाः इत्युक्ते यत्र शब्दः प्रामुख्यमस्ति धातु शब्दस्य इत्युक्ते तत्र के धातवः सन्ति भगिनि तत्र शब्दः तत्र तु
न धातवः यः कोऽपि धातः भवितुमर्हति तत्र कर्म शब्दरूपेण अस्ति अतः एव मया न स्थापितम् अत्र श्लोकः इति कर्म अस्ति तस्य श्लोककर्मस्य धातुः तत्र तद् अनुगुणं धातुः
हा ओ अस्तु अस्तु तत्र कर्म प्राप्नोति
श्लोकं पठति श्लोकं शृणोति इति तादृशं धातुः यः कोऽपि धातुः भवितुमर्हति
सत्यम् अस्तु अकर्मकधातुः अपि सन्ति एते धातवः तत्र यत्र धातु फलद्वय एकं तु व्यापारः अस्ति अन्यत्तु फलमस्ति यत्र व्यापारः अपि च फलं द्वयोः कर्ता एव पृच्छति वा न कर्ता एव
प्राप्नोति
आश्रयः तस्य आश्रयः भवति तस्य तत्र अकर्मकधातु इति वक्तुं शक्यते एतेषां धातूनां तत्र गत्यर्थकानां बुद्ध्यर्थकानां शब्दकर्मकाणाम् अकर्मकाणांश्च कर्ता यदि अन्यन्तावस्थायाम् अस्ति तत्र प्रेरणार्थके प्रेरणार्थकवाक्ये तस्य कर्मत्वं प्राप्नोति इत्युक्ते द्वितीयाविभक्तिः प्राप्नोति अपि च तत्र गतिबुद्धिप्रत्यवसानार्थकर्म कर्मकाणाम् इति सूत्रं केवलं एतत् सूत्रं तु केवलं परिगणितानां धातूनां कृते एव अस्ति सर्वेषां धातूनां कृते इति अस्ति इति अस्य सूत्रस्य विवरणम् अस्ति भगिनि
समीचीनम् अस्तु अग्रे पुष्पभगिनी पठति वा नो चेत् तत्र राजीभगिनी पठतु
पठामि
पुष्पभगिनी
पठतु प्रेरणार्थस्य विवक्षायां प्रक्रिया एवं लिक् भुवादयो धातवः इत्यनेन लिक् इत्यस्य धातुसंज्ञा हेतुमति च इत्यनेन लिच् निच् विधानं लिक् योगः निच् चुटु हल्यन्तं तस्य लोपः अनुबन्धलोपेण लिक् योगः इ तिष्ठति भुगन्त लघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः भवति आर्धधातुकप्रत्यये परे लेखी इति योगः इ तत्तु लेखी इति सनाद्यन्ता दातवः इति सूत्रेण लेखी इत्यस्य धातुसंज्ञा अस्ति लट् विवक्षायां प्रथमपुरुषस्य एकवचने ति प्रत्ययः लेखी योगः ति कर्तृशप् कर्तर्थे तिङ् प्रत्यये वा षित् कृत् प्रत्यये वा शप् विहितः भवति तत्तु लेखी योगः शप् योगः ति अनुबन्धलोपे लशक्वतद्विते हलन्त्यस्य हलन्त्यं तस्य लोपः एते सर्वे कृत्वा लेखी योगः योगः आयोगः ति सार्वधातुक अर्धधातुकयोः शप् षित् अस्ति पित् अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः तत्तु लेखे योगः आयोगः ति अत्र एचो एव आयावः कार्यं करोति इत्यनेन अचि परे ये स्थाने ऐ ऐ आदेशः लेख् योगः ऐ योगः आयोगः ति अत्र वर्णमेलने मेलनं कृत्वा लेखयति इति तिङन्तरूपं निष्पन्नम् अस्तु भगिनि अत्र लिक् दातवः भुवादयो दातवः भुवादयो दात यः दातवः इत्यस्य रूपं तिष्ठति लिक् तु भुवादिदातुः तत्र दातुसंज्ञा कथम् आयाति इति सूचयति हेतुमती च इत्यनेन निचः विधानं निच् आगच्छति लिक् योगः निच् अत्र चुटु चुटु तु तटरण नकारः गच्छति चकारः हलन्त्यम् इत्यनेन गच्छति तस्य लोपः इति कारणेन तत्र इ एव तिष्ठति पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः लघु इक् तु गुणकार्यं गुणम् आगच्छति
किमर्थं गुणः
गुणः अर्धदातुकप्रत्ययपरे
कः अर्धदातुकप्रत्ययः
इ लेखि इ न भगिनि निच् क्षम्यतां तत्र लि तु ले आगच्छति तत्तु गुणगुणकार्यं यन् 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 सन्ति न गुणकार्यम् इकारः एकारः आगच्छति अत्र सनाद्यन्तदातवः इति सूत्रेण लेखि इत्यस्य धातुसंज्ञा तत्तु लट् तदेव लेखि इत्यस्य धातुसंज्ञा आगच्छति तत् तत्तु लेखि एव अङ्गम् अस्ति अत्र लेखि योगः ति लट् विवक्षायां ति अस्ति कर्तृषप् कर्तृषप् कर्तृते तिङ् प्रत्येव षित् कृत् प्रत्येव शप् शप् सामान्यतया अस्ति तत् तत्कारणेन लेखी योगः शप् योगः ति इति अस्ति शप् तु लशक्वसद्यते इत्यनेन शकारस्य लोपः भवति पकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति तस्य लोपः इति सूत्रेण सूत्रस्य विधायकन् मात्रेण किं सम्यक् वा तस्य लोपः कार्यं करोति दशक्व तदिते हलन्त्यम् इति सूत्रेण तत्तु अनुबन्धलोपः तदेव अनुबन्धलोपः तत्कारणेन अकारः एव तिष्ठति षकारः गच्छति पकारः गच्छति अकारः अस्ति ष अप लेखि योग आ योगः ति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन शप् षित् अस्ति फित् अस्ति अतः धातु अन्त्यस्य एकः गुणः भवति तत्तु लेखिः लेखी अस्ति न इकारः अन्त्य इकारस्य गुणः अपि भवति तत्कारणात् अथवा लेखे योगः आ योगः ति इति अस्ति अत्र एचोयवायावः कार्यं करोति अत्र ये स्थाने ऐ आदेशः भवति आदेशः अस्ति लेक् योगः ऐ योगः आ योगः ति तदेव तिष्ठति तद्वर्णमेलनं कृत्वा लेखयति लेक् ऐ लेखै आ लेखया योगः ति लेखयति
सम्यक्
समीचीनम्. इदानीम् अग्रे अत्र प्रश्नः अस्ति वा? अत्र अस्माकं परिचितमेव खलु, नूतनं किमपि नास्ति. केवलम् अत्र हेतुमति च इत्यनेन निचः विधानम् इत्येव भेदः. नो चेत् अत्र चुरादिगणे यथा अस्ति तथैव अत्र भेदः नास्ति.
तदेव निच् प्रत्ययस्य प्रेरणाते निच् अस्ति न, तदेव तदेव तस्य विवरणम् अत्र.
सत्यं सत्यम्. अस्तु, इदानीम् अग्रे सावित्री भगिनि.
आं भगिनि, गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां अणि कर्ता स नौ इति सूत्रेण अण्यन्तवस्थायां यः कर्ता सः अथवा प्रयोज्यकर्ता सः ण्यन्तवस्थायां कर्मसंज्ञां प्राप्नोति इति जानीमः. तदनन्तरं कर्मसंज्ञां आश्रित्य कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्तुः द्वितीया विभक्ति विधीयते. अस्तु, इदानीमेव दृष्टवन्तः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मका अकर्मकाणाम् अणि कर्ता स णौ इति. इत्युक्ते तेषाम् अर्थे यत्र कर्म भवति तदा यः कर्ता अणिवन्तवस्थायां प्रथमाविभक्तौ अथवा कर्ता भवति सः ण्यन्तवस्थायां द्वितीयाविभक्तिरूपं स्वीकरोति अथवा कर्मसंज्ञां प्राप्नोति. अपि च तदेव आश्रित्य कर्मणि द्वितीया इत्यनेन सः एव प्रयोज्यकर्तुः भवति, अपि च तस्य द्वितीयाविभक्तिरूपं भवति इति अस्मिन् परिच्छेदे दत्तम्.
समीचीनम्, अग्रे पठतु भगिनि.
अस्तु, कर्मणि द्वितीया इति सूत्रस्य अवगमनार्थं ज्ञातव्यं यत् कर्मसंज्ञा इति काचित् संज्ञा विधीयते व्याकरणे. यस्य कर्मसंज्ञा विहिता तस्य अनभिहिते द्वितीया विभक्तिः भवति इति नियमः. अनभिहिते नाम अनुक्ते इत्यर्थः. केन अनुक्तम् इत्युक्ते प्रत्ययेन. यस्मिन्नर्थे प्रत्ययः विधीयते सः उक्तः भवति. यदि प्रत्ययः कर्तृत्वे विहितः अस्ति तर्हि कर्ता प्रत्ययेन उक्तः भवति. यदि प्रत्ययः कर्मार्थे विहितः अस्ति तर्हि कर्म उक्तं भवति. यदि प्रत्ययः भावार्थे विहितः अस्ति तर्हि कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति. यत् उक्तं तस्य प्रथमाविभक्तिः भवति इति सामान्यनियमः. यत् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य. अनुक्ते कर्तृकारके तृतीया विभक्तिः भवति. अनुक्ते कर्तृकारके तृतीया विभक्तिः भवति. अस्तु, अनुक्ते कर्मकारके द्वितीया विभक्तिः भवति. अनुक्ते करणकारके तृतीया विभक्तिः भवति. अनुक्ते सम्प्रदानकारके चतुर्थी विभक्तिः भवति. अनुक्ते उपादानकारके पञ्चमी विभक्तिः भवति. अनुक्ते अधिकरणकारके सप्तमी विभक्तिः भवति. एतत् सामान्यव्यवहारः इति अवगन्तव्यम्. अस्तु, पूर्वं दृष्टवन्तः कर्मसंज्ञा इति भवति नियन्त अवस्थायाम् इति. अत्र कर्मणि द्वितीया इत्यस्य कथम् अवगमनं कर्तुं शक्यते इति दत्तम्. अत्र सूत्रस्य अवगमनार्थं ज्ञातव्यं भवति केनचित् विषयाः, कानिचन विषयाः. यत्र कर्मसंज्ञा विहितः तस्य न, तस्मात् पूर्वं यत् कर्मसंज्ञा इति अस्तु, यस्य कर्मसंज्ञा विहिता तस्य अनभिहिते द्वितीया विभक्ति भवति इति नियमः. इत्युक्ते यस्य कर्मसंज्ञा भवति तस्य द्वितीया विभक्तिः भवति एव इति नियमः.
अनभिहिते इत्यपि अस्ति. अनभिहिते इत्युक्ते अनुक्ते.
अनुक्ते अनभिहिते इत्युक्ते अनुक्ते यत् साक्षात् न उक्तम् इति अर्थः. केन अनुक्तम् इत्युक्ते प्रत्ययेन अनुक्तम्. यस्मिन्नर्थे प्रत्ययः विधीयते सः उक्तः भवति. आम्, यस्मिन् अर्थे प्रत्ययः विधीयते सः उक्तः भवति. आं कर्तृत्वे इति वदामः खलु, तदा कर्ता एव उक्तः इति अर्थः भवति. यदि प्रत्ययः कर्मार्थे विहितः भवति तर्हि कर्म उक्तम् इति अवगमनं भवति. यदि प्रत्ययः भावार्थे विहितः अस्ति तर्हि कर्ता अपि अनुक्तः कर्म अपि अनुक्तं भवति. प्रायः एकं उदाहरणं स्वीकृत्य कुर्मः चेत् सम्यक् इति मम
अग्रे अस्ति भगिनि उदाहरणम्.
यत् उक्तं तस्य प्रथमा विभक्तिः भवति इति सामान्यनियमः. सरलमेव, यत् उक्तं प्रत्ययेन यदुक्तं तदेव प्रथमा विभक्तिः, उक्तं तस्य प्रथमा विभक्तिः भवति इति सामान्यनियमः. यद् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य. आम् इत्युक्ते यदुक्तं तत् तस्य प्रथमा विभक्तिः निश्चयेन, परन्तु यद् अनुक्तं तस्य विभक्तिः भवति कारकमनुसृत्य. अनुक्ते कर्तृकारके तृतीया विभक्तिः भवति. आम् कर्तृकारके तृतीया विभक्तिः भवति. अनुक्ते कर्तृकारके तृतीया विभक्तिः भवति. पुनः तत्र अनुक्ते इत्युक्ते
इदानीं पश्यतु भगिनि, इदानीं रामः विद्यालयं गच्छति इति वदामि चेत् तत्र प्रत्ययः कः गच्छति इत्यत्र तिङ् प्रत्ययः प्रत्ययः अस्ति खलु. गच्छति इत्यनेन तत्र कर्तरीप्रयोगे अस्ति. तिङ् प्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा कर्ता उक्तः, तर्हि रामः उक्तः अस्ति. गच्छति इत्यनेन रामः उक्तः अस्ति, अतः रामस्य
कर्तृसंज्ञा
प्रथमाविभक्तिः. हा, प्रत्ययेन उक्तः इति कृत्वा रामस्य प्रथमाविभक्तिः. इदानीं विद्यालयम् इत्यस्य कर्मसंज्ञा अस्ति, यतोहि गमनक्रिया किमर्थं करोति इत्युक्ते विद्यालयं प्राप्तुमेव सः गमनक्रियां करोति, अतः विद्यालयम् इत्यस्य कर्मसंज्ञा अस्ति. परन्तु विद्यालयम् इति प्रत्ययेन उक्तमस्ति वा?
न उक्तम्. अस्तु,
तिङ्प्रत्यये गच्छति इत्यनेन न उक्तं, तर्हि अनुक्तम् अस्ति. अतः तस्य द्वितीया विभक्तिः भवति. अनुक्ते कर्मकारके द्वितीया विभक्तिः भवति. इदानीं तदेव वाक्यं कर्मणि प्रयोगे करोतु.
बालकः विद्यालयं गच्छति इति आसीत् वा?
रामः विद्यालयं गच्छति.
विद्यालयं गच्छति, रामेण विद्यालयः गम्यते.
इदानीं गम्यते इत्यनेन
कर्म एव उक्तम् अस्ति, कर्मणि प्रयोगम् अस्ति इति कृत्वा रामेण इत्यस्य रामः अनुक्तः.
कर्म उक्तं खलु, तर्हि कर्मणः
कर्मणः प्रथमा विभक्ति
उक्तत्वात्.
उक्तत्वात् सत्यं,
रामः इति अनुक्तः.
आम् आम्, अवगतं भगिनि.
रामः अनुक्तः इति कृत्वा
तस्य कर्तृकारके तृतीया विभक्ति भवति. रामः कर्तृ खलु, तृतीया विभक्तिः.
कर्ता कर्ता कर्म इति अत्र सामान्यतया कथम् अवगच्छामः तथा एव अहम् इदानीं वदामि. तत्र कारकस्य प्रसङ्गे इतोपि अधिकम् अस्ति, तद् इदानीं न तद् भिन्नवार्ता अस्ति, तस्य विषये वयं न चिन्तयामः इदानीं. तर्हि तदर्थं कारकप्रकरणम् इति पठनीयं. परन्तु सामान्यव्यवहारे कर्ता कः, कर्म किम् इति वयं जानीमः खलु. तस्य आधारेण अनुक्तः अस्ति चेत् कर्ता, तस्य तृतीया विभक्तिः भवति. एवमेव तत्र इदानीम् अहं वदामि, रामः तस्मै पुस्तकं ददाति इति वदामि चेत् रामः तस्मै पुस्तकं ददाति. तर्हि रामः इति ददाति इति क्रियापदेन उक्तः खलु, तर्हि तस्य प्रथमविभक्तिः. इदानीं तत्र पुस्तकम् इति कर्म अस्ति, अनुक्तम् अस्ति खलु, अतः तस्य द्वितीया विभक्तिः. अनुक्ते कर्मणि द्वितीया. तदनन्तरं तस्मै इति तत्र सम्प्रदानम् अस्ति खलु, सम्प्रदानकारकम् अस्ति, अतः तत्र चतुर्थी विभक्तिः तस्मै दीयते. अनुक्ते सम्प्रदानकारके चतुर्थी विभक्तिः.
तथैव अनुपदे अपादानकारके पञ्चमी विभक्तिः। आम्,
इदानीम् अहं वदामि रामः गृहे तस्मै पुस्तकं ददाति। गृहे इति वदामि चेत् अनुक्ते अधिकरणे सप्तमी विभक्तिः। इदानीम् अपादानं यदि अहं वदामि तत्र तत्र स्यूतात् पुस्तकं ददाति, रामः स्यूतात् पुस्तकं ददाति, तर्हि स्यूतात् इति अपादानम् अस्ति, अतः अपादाने पञ्चमी विभक्तिः।
भगिनी तत्र तस्मै स्यूतात् गृहे सर्वे अनुक्ताः सन्ति खलु?
अनुक्ताः, तत्र प्रत्ययेन न उक्तः खलु इति कृत्वा तत्र विभक्तिविधानं भवति। अस्तु, इति सामान्यव्यवहारः, अवगतं खलु? सम्प्रसारणं वा सम्प्रदानं? सम्प्रदानम् इति अहं वदामि, अहं भवत्यै पुस्तकं ददामि इति वदामि चेत् भवत्यै इत्यत्र भवति एव तत्र सम्प्रदानकारकं भवति प्राप्नोति इति कृत्वा भवत्यै इति चतुर्थी विभक्तिविधानं।
सम्प्रदानम् इति वदनेन
संज्ञा इति अस्ति, सम्प्रदानसंज्ञा इत्युक्ते यः स्वीकरोति, यः स्वीकरोति तस्य सम्प्रदानसंज्ञा। अहं ददामि, भवती स्वीकरोति, अतः भवत्याः सम्प्रदानसंज्ञा।
भगिनि इदानीं प्रत्यय तिङ् प्रत्ययः एव भवेत् इति किमपि नियमः कोऽपि नियमः नास्ति?
नास्ति नास्ति नास्ति, अहं सरलतया अवगमनार्थं तिङ् प्रत्ययं स्वीकृत्य उक्तवती। इति कृत् प्रत्ययः अपि भवितुमर्हति, कृत् प्रत्ययः भवितुमर्हति, यः कोऽपि प्रत्ययः भवितुमर्हति। अस्तु, तर्हि इदानीम् अग्रे सरला भगिनी पठति वा?
आं भगिनि, कर्मणि द्वितीय अध्यायस्य तृतीयपादे द्वितीयसूत्रम्, अनुक्तकर्मणः द्वितीया विभक्ति भवति। कर्मणि सप्तम्यन्तं द्वितीया प्रथमान्तं द्विपदमिदं सूत्रम् अनभिहिते इति सूत्रस्य अधिकारः अस्ति। अनुवृत्तिसहितसूत्रम् अनभिहिते कर्मणि द्वितीया। इदानीं वयं जानीमः अनुक्तकर्मणः किं भवति, यत्र प्रत्ययेन गच्छति तस्य उक्तः नास्ति क्रिया सह तस्य अनुक्तकर्मणः भवति। सो अनुक्तकर्मणः तस्य द्वितीया विभक्ति भवति कर्मणि द्वितीया अनेन सूत्रेण। कर्मणि इति सप्तम्यन्तम् अस्ति, द्वितीया प्रथमान्तम् इति पदमस्ति, द्विपदमिदं सूत्रम् अनिभिते इति सूत्रस्य अधिकारः अस्ति। अनुवृत्तिसूत्र अस्ति अनिभिते कर्मणि द्वितीया। सो कर्म यत् कर्म अनुक्त अस्ति तस्य द्वितीया विभक्ति द्वितीयान्तं कृते तस्मात् विधीयते इति।
समीचीनम्। अतः अनुक्तः अस्ति वा नास्ति वा इति प्रथमतया चिन्तनीयं। यदि प्रत्ययेन उक्तः अस्ति तदानीं द्वितीया विभक्तिः न भवति कर्मपदस्य। यदि प्रत्ययेन कर्म उक्तं भवति चेत् तदानीं प्रथमाविभक्तिः एव भवति, न तु द्वितीया। यदि अनुक्तं तदानीमेव द्वितीया, अनुक्तकर्मणः एव द्वितीया। तर्हि अस्माकं वाक्ये अस्माकं तत्र मूल तत्र निजन्तप्रसङ्गे अस्माकं वाक्यं किम् आसीत्? देवदत्तेन आचार्यः देवदत्तेन पाठं पाठयति इत्यत्र देवदत्तेन इत्यत्र देवदत्तः इत्यस्य कर्मसंज्ञा नास्ति, यतोहि अत्र पाठयति इत्यत्र तादृशविशिष्टः धातुः नास्ति इति कृत्वा देवदत्तेन इत्यत्र प्रयोज्यकर्ता अस्ति, तस्य कर्तृसंज्ञा अस्ति, स्वतन्त्रः कर्ता इत्यनेन देवदत्तस्य कर्तृसंज्ञा अस्ति। परन्तु तिङ् प्रत्ययेन न उक्तः अत्र। भगिनि, आचार्यः देवदत्तेन पाठं पाठयति इत्यत्र किञ्चित् प्रतिपादयतु, कथं विभक्तिविधानम् इति।
अस्तु, आचार्यः इति कर्ता उक्तः अस्ति, पाठयति आचार्यः पाठयति, तस्य साक्षात् क्रियापदेन अन्वयः भवति, अन्य कोऽपि कारकम् अन्यपदं न भवति, तदापि आचार्य स्वतन्त्रता इति तिष्ठति, आचार्य पाठयति इति. किन्तु अत्र आचार्य प्रयोजककर्ता अस्ति अस्मिन् वाक्ये, सो इति हैतु प्रयोजकचो इति प्रयोगच प्रयोजक च इति सूत्रेण तस्य प्रयोजककर्ता इति आगच्छति संज्ञा. आचार्य
सूत्रं किमस्ति?
हेतु प्रयोजक च प्रयोजक इति
तत् प्रयोजको हेतुश्च
तत् प्रयोजक हेतुश्च
क्षम्यता.
तदनन्तरम् आचार्य देवदत्तेन पाठं पाठयति. सो देवदत्तेन इति तृतीयाविभक्त्याम् अस्ति देवदत्त, तत्र तृतीया विभक्ति प्रत्ययः अस्ति किन्तु अनुक्ता अस्ति, साक्षात् अन्वयः न भवति. अत्र तस्य करण आगच्छति कर्तृकरणो, यदि
देवदत्तः इत्यस्य संज्ञा का?
अनुक्तकर्म अस्ति, कर्ता अस्ति. यदि
प्रयोजकर्म वा कर्ता वा?
कर्ता कर्ता
अनुक्तकर्ता प्रयोज्यकर्ता.
एतत् वाक्यं रिजन्त अवस्थायाम् अस्ति, यदि अरिजन्त अवस्था भवति तत्र भवति देवदत्तः पाठं पठति इति, तत्र देवदत्त स्वतन्त्रकर्ता अस्ति, तत्र तस्य रिजन्त अवस्थायां प्रयोज्यकर्ता इति भवति. प्रयोज्यकर्ता तस्य तृतीया भक्ति आगच्छति, कारणकी गति बुद्धि प्रत्यावस्थानशब्दकर्मका कर्मकाणौ अणि कर्तारौणौ इति परिगणता, ये धातवस्ति तेषां पठ धातु न आगच्छति, अतः देवदत्तस्य तस्य कर्ता अस्ति. अनिजन्त अवस्थायां तस्य तृतीया भक्ति आगच्छति, अत्र कर्ता अनुक्त अस्ति तस्य, तत्र देवदत्तेन इति भवति. पाठं यत् अस्ति पाठं तस्य कर्म अनुक्त अस्ति, अत्र साक्षात् कर्म क्रियाया सह उक्त न अस्ति, अतः तस्य कर्मस्य कर्मणः इति यत् पदम् अस्ति तस्य द्वितीया विभक्ति आगच्छति. पाठम् अरिजन्त अवस्थायामपि देवदत्तः पाठं पठति, तत्र अपि कर्मसंज्ञा एव भवति, पठति पठति अरिजन्त अवस्थां पाठ्यति इति अरिजन्त अवस्थायां क्रियापदम् आगच्छति.
बहु समीचीनं. बुद्धं खलु अत्र प्रश्नः अस्ति वा?
हा, एकः प्रश्नः अस्ति भगिनि. अत्र कर्मणि अत्र अनभिहिते इति उक्तमस्ति, अत्र कृत् प्रत्ययः तिङ् प्रत्ययः अहं जानामि येन कर्मणि अर्थे भवितुम् अर्हति अथवा कर्तृर्थे, परन्तु अपादानार्थे सम्प्रदानार्थे के प्रत्ययाः सन्ति?
तत्रैव कृत् प्रत्ययाः सन्ति, केचन कृत् प्रत्ययाः यथा तत्र कृत्यप्रत्ययः सन्ति, यथा अनियर् प्रत्ययः, तव्यत् प्रत्ययः, ते प्रत्ययः अपादानार्थे अपि भवितुम् अर्हन्ति. इति इदानीं तत्र चूर्णं स्नानीयम् इति वदामि चेत् चूर्णं स्नानीयम् इति तत्र स्नानीयम् इत्यत्र कः प्रत्ययः?
अनियर् प्रत्ययः.
अनियर् प्रत्ययः अस्ति. तर्हि अत्र चूर्णम् इति तत्र कीदृशमस्ति, तस्य कीदृशसंज्ञा?
कर्म अस्ति किल?
कर्म नास्ति. चूर्णम् इति किं? वयं चूर्णेन स्नानं कुर्मः खलु, कर्म भवति.
ओ,
कर्म नास्ति, करणार्थे अस्ति.
करणार्थे अस्ति वा?
अन्यर् अस्ति चेत् तु कर्मणि प्रयोगे
न तथा नास्ति, तथा नास्ति, कर्मणि एव भवति इति नास्ति, तत्र अपवादः सन्ति. तर्हि चूर्णं स्नानीयम् इति वदामः चेत् तत्र चूर्णम् इति कर्म नास्ति, करणार्थे अस्ति, करणमस्ति. तर्हि तत्र चूर्णेन स्नानीयम् इति स्यात् खलु, चूर्णेन स्नानीयम् इति स्यात्, परन्तु तत्र स्नानीयम् इत्यत्र अनियर् प्रत्ययः करणार्थे विहितः अस्ति, करणार्थे विहितः अस्ति इति कृत्वा करणम् उक्तम् अस्ति तत्र. अतः चूर्णम् इति प्रथमायाम् अस्ति,
चूर्णं स्नानीयम् इति वाक्यं, न तु चूर्णेन स्नानीयं. यदि अनुक्तः अस्ति तदानीमेव चूर्णेन इति भवति, परन्तु स्नानीयम् इत्यत्र अनियर् प्रत्ययेन चूर्णम् इति उक्तमस्ति, करणम् उक्तमस्ति इति कृत्वा तत्र चूर्णम् इत्यस्य प्रथमविभक्तिः, न तु अन्यत् किमपि. करणार्थे तृतीया इति नास्ति
भगिनि. यत् वयं पूर्वं परिच्छेदे पठितवन्तः, यदि प्रत्ययः भावार्थे विहित अस्ति तर्हि कर्ता अपि अनुक्त, कर्म अपि अनुक्त. यथा वयं यदि वदामः अश्व धावति अश्वेन धावति, अतः वयं वदामः
अश्वेन अश्वेन
धाव्यते क्षम्यतां अश्वेन धाव्यते, तो तत्र कर्ता अनुक्त अस्ति अपि कर्म नास्ति अपि कर्मकधातुः अस्ति इति.
तत्र अश्वः धावति इत्यत्र, अश्वः धावति इत्यत्र धावति इति तिङ् प्रत्ययः कस्मिन् अर्थे अस्ति? कर्तरार्थे अस्ति तत्र. कर्तरार्थे अस्ति इति कृत्वा अश्वः इत्यस्य प्रथमाविभक्तिः भवति तत्र. परन्तु कर्मणि प्रयोगे, यदि भावे प्रयोगे यदि वदामः अश्वेन धाव्यते, तत्र धाव्यते इत्यत्र तत्र भावार्थे अस्ति प्रत्ययः, तर्हि कर्ता न उक्तः, कर्म अपि तत्र भावार्थे तु कर्म एव न भवति खलु.
तथैव मम कर्म अपि अनुक्त भवति, कथं तत् आगच्छति भावार्थे? कर्म नास्ति न तत्र?
न, तत्र भावार्थे प्रत्ययः अस्ति चेत् कर्म नास्ति एव इति नास्ति. कृत् प्रत्ययः यदि भावार्थे अस्ति तत्र कृष्णः जगतः कर्ता इति कर्ता इति वदामः चेत् कर्तार्थे अस्ति. कृतिः इति पदमस्ति खलु, कृतिः इति भावार्थे अस्ति तिन् प्रत्ययः. तादृशप्रत्ययः भावार्थे अस्ति चेत् तत्र कर्ता कर्म द्वयमपि भवितुमर्हति. यदि कर्मणि प्रयोगे भावे प्रयोगे इति वदामः तदानीं कर्म न भवति, परन्तु कृत् प्रसङ्गे भावार्थे प्रत्ययः विहितः चेत् तत्र कर्म भवितुमर्हति. न शृणोमि, पुनः वदतु.
बालकः रुदितः सम्यक् खलु?
बालकः रुदितः, हा.
तत्र कर्त्रार्थे अस्ति किन्तु अकर्मकः अस्ति, अतः कर्तरी अपि
शक्यते. परन्तु यदि भावार्थे भवति वदति, तत्र भावार्थे वाक्यं कथं भवति?
बालकेन रुद्यते.
बालकेन भवती त प्रत्ययं प्रयुज्य उक्तवती, अतः तदेव स्वीकृत्य वदतु. बालकेन रुदितम् इति उक्तवती खलु, रुदितम् इत्यनेन कः उक्तः? कोऽपि नास्ति खलु, अतः कर्ता अनुक्तः अस्ति, अतः तस्य
तृतीया
इति अस्ति.
बालकेन रुदितं, कर्ता अनुक्त, किन्तु बालकः रुदितः, तत्र कर्तृप्रयोगे बालकः कर्ता अस्ति, तत् उक्तः अस्ति.
सत्यं सत्यम् इति वार्ता. सरलाभगिनी, भवत्याः प्रश्नस्य उत्तरं प्राप्तं वा? भवती किमपि वक्तुमिच्छति खलु?
कर्म अपि अनुक्तं भावार्थे तस्य उदाहरणं
उदाहरणम् इदानीं वदामि. तत्र कृतिः गतिः इति स्वीकृत्य वक्तुं शक्यते. इदानीमेव वदामि, इदानीं मनसि नास्ति, वदामि पञ्चनिमिषानन्तरं वदामि.
प्रश्नः कः
भगिनि? रुदितः तु का प्रत्ययः? कोऽपि नास्ति, कोऽपि किङ् प्रत्ययः नास्ति, तत्र कथम् अत्र अनुक्तः? अनुक्तः नास्ति, अनुक्तः अपि नास्ति.
न, तत्र कर्तरिप्रयोगे अस्ति चेत् कर्ता उक्तः अस्ति, कर्तरिप्रयोगे अस्ति चेत् कर्ता उक्तः, परन्तु तत्र भावे प्रयोगे यदि वाक्यम् अस्ति, भावे प्रयोगः वाक्यमस्ति चेत् तदानीं तत्र बालकेन रुदितम् इति वदामः चेत् रुदितम् इत्यनेन कर्ता न उक्तः, तदानीं कर्तुः तृतीया, अनुक्ते तृतीया.
अनुक्ते तृतीया, हा. परन्तु कार्यं ऋदितं तु द्वितीयविभक्ति
ऋदितमिति द्वितीयविभक्तिः वा कथं
न
रुदितं तु नपुंसकलिङ्ग अस्ति वा
नपुंसकलिङ्गमाविभक्ति एकवचनम्
अस्तु
अस्तु इदानीम् अग्रे गच्छेम इदानीं तत्र राजीभगिनी पठितुमिच्छति वा
आं भगिनि
पठतु अग्रे
रामः पुस्तकं पठति इति वाक्यं कर्तरिप्रयोगे अस्ति अत्र पट् इति धातुः कर्तृत्वे विहितः अस्ति अतः एव अस्मिन् वाक्ये कर्ता रामः उक्तः अस्ति पठति इति तिङन्तपदेन रामः उक्तः इति कृत्वा रामस्य प्रथमाविभक्तिः विधीयते प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण यस्मिन् कस्मिन्नपि वाक्ये प्रत्ययेन एकः उक्तः भवति तस्य प्रथमाविभक्तिः भवति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण एकः उक्तः चेत् वाक्ये अन्ये अनुक्ताः भवन्ति अस्तु रामः पुस्तकं पठति इति वाक्यं कर्तृप्रयोगे अस्ति अतः पट्टिति धातु लट्लकारः अस्ति लट्लकारे अस्ति एतस्मिन् वाक्ये कर्ता रामः उक्तः अस्ति पठति इति तिङ्गदपदमस्ति इति कारणेन रामः उक्तः इति कथनेन रामस्य प्रथमाविभक्तिः अस्ति प्रथमाविभक्ति विधीयते तस्य सूत्रमस्ति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रं यदि वाक्ये एकः उक्तः भवति तस्मिन् वाक्ये प्रथमाविभक्तिः भवति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण एकः एव उक्तः चेत् वाक्ये अन्ये किमपि अनुक्ताः भवति सर्वे इति
समीचीनं तर्हि अस्माकं रामः पुस्तकं पठति इति वाक्ये पठति इति क्रियापदेन रामः उक्तः इति कृत्वा रामस्य प्रथमाविभक्तिः प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण तस्य सूत्रस्य विवरणम् इदानीं न दत्तम् इदानीं न आवश्यकं केवलं प्रथमाविभक्तिः भवति इति अवगच्छामः चेत् पर्याप्तं यतोहि तत्र बहूनि दलानि सन्ति तत्र प्रत्येकं बहु अधिकं भवति इदानीं यतोहि कारकप्रसङ्गे अस्ति इति कृत्वा तत्सर्वं न उक्तं परन्तु यदुक्तं तस्य प्रथमाविभक्तिः अनेन सूत्रेण भवति तर्हि वाक्ये एकः उक्तः अस्ति चेत् एकक्षणं भगिनि एकक्षणं वाक्ये एकः उक्तः चेत् अन्ये सर्वे अनुक्ताः भवन्ति अन्ये तत्र रामः पुस्तकं पठति इति वाक्ये एव यदि तत्र अपादानकारकम् अथवा अधिकरणकारकं सर्वम् अस्ति ते सर्वे अपि अनुक्ताः इति कृत्वा तत्र विभक्तिविधानं भवति अस्तु
भगिनि भगिनी एकः प्रश्नः इदानीं तप्रत्ययस्य प्रयोगः भवति चेत् रामः पठितः इति भवति चेत् तत्र उक्तः वा अनुक्तः वा
न वाक्यं सम्यक्तया वदतु वामेक् सम्यक्तया वदतु रामः पठितः इति वाक्यं कथं वदतु सम्यक्तया
रामेण
पुस्तकं पठितम् इति वक्तुमिच्छति वा
न रामः पठितः इति अपि समीचीनमेव खलु
न रामः पठितः इत्युक्ते सम्पूर्णतया वदतु वाक्यम् इदानीं तत्र रामः पठितः इति वदति चेत् तत्र किं वक्तुमिच्छति रामः कर्मपदेन वक्तुमिच्छति वा भवती कर्ता वा कर्म वा
तदेव मम प्रश्नः
कर्तरिप्रयोगे वाक्यम् उक्त्वा तदनन्तरं कर्मणि प्रयोगे करोतु
रामः पठति इति वदामि चेत् रामेण पठितः इति भवति तत्र कर्म
रामेण पठितं
पठितं
तर्हि प्रश्नः कः
न रामेण पठितम् इति चेत् अत्र कर्म न उक्तम्, अन्यकर्म योजनीयं, पुस्तकं पठितं न चेत्
न, यदि विवक्षा नास्ति, भवत्याः विवक्षा एव नास्ति अत्र, कर्म वक्तव्यम् इति विवक्षा नास्ति इति चिन्तयतु, तर्हि रामेण पठितम् इति तावदेव भवती वदति, तर्हि तत्र कर्म एव नास्ति, रामः अनुक्तः इति कृत्वा तत्र रामस्य तृतीयाविभक्तिः, कर्म नास्ति अतः चिन्ता नास्ति, तर्हि तावदेव तत्र, यद्यपि पट्दातुः कर्मपदं स्वीकर्तुम् अर्हति परन्तु भवत्याः विवक्षा नास्ति अतः तत्र कर्मस्य कर्मणः चिन्ता एव नास्ति.
अतः अत्र
प्रयोजन
न, एकक्षणं भगिनि, अत्र लक्ष्मीभगिनी वदतु.
इदानीं तप्रत्ययस्य प्रत्ययेन कर्तृकारकस्य तृतीया विभक्ति इति
तावदेव,
अनुक्ते तृतीया
तावदेव, अनुक्ते तृतीया, प्रत्ययेन न उक्तम् अतः तत्र कर्तुः तृतीया विभक्तिः.
अत्र रामः पठितः इति वदनेन
धन्यवादः,
रामः पठितः इति वाक्यं समीचीनं नास्ति, अतः त्यजतु,
नास्ति अत्र विशेषविशेषणभावः आगच्छति,
नास्ति तथापि नास्ति
भगिनि. तप्रत्ययः कर्तृके अपि भवति वा, तादृशप्रयोगः अपि चेत् कर्मार्थे अपि भवति कर्तृते अपि?
कर्तार्थे सर्वदा न भवति, सर्वेभ्यः धातुभ्यः न भवति, परन्तु अकर्मकधातुभ्यः गत्यर्थकधातुभ्यः भवति. यदि धातुः अकर्मकः अस्ति अपि च धातुः गत्यर्थकः अस्ति चेत् कर्तृप्रयोगे अपि तप्रत्ययः भवति.
किं
किं
विस्मितम् इति वदामः चेत् अत्र तप्रत्ययः कर्तृत्वे भवति इति चिन्तयामि.
विस्मितं तत्र स्मितम् इति तत्र पुष्पभगिनी कृपया म्यूट् करोतु भगिनि. विस्मितम् इति वदामः चेत् आं सत्यम्.
अस्तु भगिनि, धन्यवादः.
इदानीं सरला भगिनी अत्र पश्यतु, वाक्यमस्ति कृष्णः जगत् करोति इति वाक्यमस्ति खलु,
पुनः वदतु भगिनि.
कृष्णः जगत् करोति इति सामान्यवाक्यमस्ति कर्तरीप्रयोगे. इदानीं तदेव वाक्यम् अहं कृत् प्रत्ययं स्वीकृत्य वदामि, कृष्णस्य जगतः कृतिः इति वदामि चेत् कृतिः इति कृदन्तपदमस्ति, भावार्थे अस्ति तिन् प्रत्ययः. तर्हि कृष्णः इति कर्ता अस्ति, जगतः इति कर्म अस्ति तत्र. तर्हि तत्र कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः, यतोहि प्रत्ययः भावार्थी अस्ति. परन्तु तत्र यद्यपि कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः, परन्तु तत्र वैशिष्ट्यम् अस्ति, इदानीं तत्र न गच्छामः.
पुनः वदतु भगिनि.
कृष्णस्य जगतः कृतिः, कृष्णस्य जगतः कृतिः. तर्हि कृतिः इति पदं तिन् प्रत्ययान्तः अस्ति, भावार्थे अस्ति, कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः, परन्तु तत्र कृत् प्रत्ययः अस्ति, कृतिः इत्युक्ते कृत् प्रत्ययः अस्ति इति कृत्वा तत्र कर्मणः षष्ठीविभक्तिः भवति, कर्तुः अपि षष्ठीविभक्तिः विकल्पेन भवति इति विशेषनियमः अस्ति तत्र. तत्र सरलभगिनी भवती जानाति तत्र कर्तृकर्मणोः कृतिः अस्ति खलु, तेन अपि च उभयप्राप्तौ कर्मणि इति अस्ति खलु, उभयप्राप्तौ कर्मणि इति सूत्रेण कर्मणः षष्टिविभक्तिः भवति, अपि च कर्तुः विकल्पेन षष्टिविभक्तिः भवति. अतः
जगतः कृतिः अपि सम्यक्,
अहं भावार्थे केवलं कर्मणि भावार्थे इति तस्य अर्थम् इति
कृत् प्रत्ययस्य, यदि कृत् प्रत्ययः भावार्थे भवति तदानीं कर्म अपि भवितुमर्हति.
अस्तु, इत्युक्ते कृष्णेन जगतः कृतिः सम्यक् किं?
सम्यक् सम्यक्, कृष्णेन जगतः कृतिः अथवा कृष्णस्य जगतः कृतिः, उभयमपि साधु.
इदानीं प्रत्ययभावार्थे अस्ति इति कथं ज्ञातुं शक्नुमः?
व्याकरणं पठनीयं यथा अस्माभिः इदानीं क्रियते तथा. अस्तु,
अभ्यास.
अभ्यासः अपि च तत्र पठनीयं, तत्र कस्मिन् अधिकारे किम् अस्ति, केन अर्थेन प्रत्ययः विधीयते, सर्वं ज्ञातव्यं भवति.
अत्र भगिनि पठितः शब्दः एव नास्ति वा?
पठितः शब्दः अस्ति खलु,
तथैव
अस्ति अस्ति, पठितः इति शब्दः अस्ति, रामेण पुस्तकं पठितम्. बालकेन कथा पठिता, बालकेन श्लोकः पठितः. अस्तु, इदानीं तत्र सुमन् भगिनी पठितुमिच्छति वा?
भगिनी एकक्षणं, भगिनी अत्र कृतिः इति वदनेन कृत्प्रत्ययस्य उल्लेखनं वा, तस्य प्रतिपादनं?
तिङ् प्रत्ययः अस्ति खलु, गतिः, मतिः, कृतिः.
अस्तु अस्तु, तस्मिन्
तत्र विशेषः अस्ति, यत्र कृत्प्रत्ययः अस्ति तत्र विशेषः अस्ति.
न चेत् कृष्णः जगतः कर्ता इति कर्तृप्रयोगे वक्तुं शक्नुमः. तस्य
कृष्णः जगतः कर्ता इति वक्तुं शक्यते, कृष्णः जगतः इति नास्ति, कृष्णः जगतः कर्ता इति. अस्तु, स समीचीनं, कृष्णः जगतः कर्ता.
भगिनी कृष्णः जगतस्य कर्ता इति
जगतस्य इति पदं नास्ति,
जगतः
जगत् ओ अस्तु अस्तु अस्तु
अस्तु. इदानीं सुमन् भगिनी पठतु.
अस्मिन् वाक्ये खलु,
सत्यम्,
अस्मिन् वाक्ये पुस्तकम् इति कर्मवाचकः शब्दः अस्ति, सः शब्दः केनापि प्रत्ययेन अनुक्तः अस्ति. कर्म अनुक्तम् इत्यतः कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्तिः विधीयते. अतः पुस्तकम् इति कर्मवाचक पदस्य द्वितीया विभक्तिः भवति. एवमेव अन्यत्रापि भवति इति अवगन्तव्यम्. प्रत्ययेन यत् उक्तम् अस्ति, यत् अनुक्तम् अस्ति इति ज्ञानम् अति आवश्यकम् अस्ति. अग्रे अपि पठामि,
एतत् पठित्वा उक्त्वा अनन्तरम्.
अस्तु, अत्र वयं चर्चितवन्तः खलु, इदानीं तु वाक्यम् अस्ति रामः पुस्तकं पठति, तत् वाक्यं कर्तरि प्रयोगे अस्ति, इदानीं पठति इति रामः एव उक्तः अस्ति, सः कर्ता भवति. इदानीं पुस्तकम् अनुक्तः अस्ति, अनुक्तः अस्ति अपि च कर्मणि अस्ति चेत् कर्मणि द्वितीया इति सूत्रेण तत् द्वितीया विभक्तिं प्राप्नोति. अतः इदानीं पुस्तकं द्वितीया विभक्त्याम् अस्ति.
समीचीनम्, अग्रे.
अस्तु, रामेण पुस्तकं पठ्यते इति वाक्यं कर्मणि प्रयोगे अस्ति. अस्मिन् वाक्ये ते इति तिङ् प्रत्ययेन पुस्तकम् इति कर्मपदम् उक्तम् अभिहितम् अस्ति. पुस्तकम् इति पदम् उक्तत्वात् क्षम्यताम्, उक्तत्वात् तस्य प्रथमा विभक्तिः भवति. प्रातिपदकार्थे लिङ् परिमाणवाचनमात्रे प्रथमाः इति सूत्रेण. अस्तु, रामेण इति पदं कर्तृवाचकं पदम् अनुक्तम् अस्ति, अतः अनभिहिते रामेण इति कर्तृपदस्य तृतीया विभक्ति भवति. कर्तृकरणयोः तृतीया इति सूत्रेण. अस्तु, इदानीं नूतनवाक्यम् अस्ति, रामेण पुस्तकं पठ्यते. इदानीं तु ते इति तिङ् प्रत्यय इति दत्तं, तत्र कर्मणि प्रयोगे भवति, अपि च क्रियापदम् आत्मनेपदीरूपं स्वीकरोति. इदानीं कर्मपदम् उक्तम् अस्ति, यत् अतः कर्मणि प्रयोगे कर्मपदम् उक्तम् अस्ति, अतः पुस्तकम् अत्र प्रथमाविभक्त्याम् अस्ति. कर्मणि प्रयोगे कर्ता अनुक्तः भवति, अनुक्तः अस्ति, अतः कर्ता तृतीयाविभक्त्यां भवति, कर्मपदं प्रथमाविभक्त्यां भवति.
तृतीयविभक्तौ केन सूत्रेण?
कर्तृकरणयोः तृतीया इति, तत्र अनुक्तः अस्ति चेत् तृतीया.
प्रथमविभक्तौ केन सूत्रेण?
तत्र प्रातिपदिकार्थ लिङ्ग् परिमाणवचनमात्रे प्रथम.
समीचीनम्, अस्तु, एतावत् अबुद्धं खलु. भगिनी कृपया म्यूट् करोतु. भगिनी न जाने किमर्थं ध्वनिः अस्ति, प्रतिध्वनिः.
क्षम्यतां.
नास्ति चिन्ता. अस्तु, एतावत् स्पष्टं वा सर्वेषां कृते? अस्तु, इदानीम् अग्रे गतिबुद्धिप्रत्यवसानार्थक इति सूत्रस्य उदाहरणानि पश्यामः. अस्तु, वेङ्कटेश् महोदय.
कुत्र अस्ति
गत्यर्थकधातवः? अग्रे
गत्यर्थकधातवः. यज्ञदत्तः देवदत्तं विद्यालयं गमयति. देवदत्तः विद्यालयं गच्छति इति अण्यन्तावस्थायां वाक्यमस्ति. गम् धातुतः हेतुमति च इत्यनेन निच् निचः विधानम्. निच् प्रत्ययं योजयित्वा गमि इति धातुः निष्पद्यते. लटि प्रथमपुरुषैकवचने गमयति इति रूपम्. देवदत्तः इति यः कर्ता अन्यन्तावस्थायां, सः ण्यन्तावस्थायां कर्मत्वं प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्माकर्मकाणाम् अणि कर्तासनौ इति सूत्रेण. यतोहि गम् इति धातुः गत्यर्थकः अस्ति. अस्माकं वाक्येषु अन्यन्तावस्थायां कर्ता कः इति ज्ञातव्यं भवति. सः एव ण्यन्तावस्थायां प्रयोज्यकर्ता भवति. प्रयोज्यकर्ता एव कर्मसंज्ञां प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्तासणौ इति सूत्रेण. तदनन्तरं कर्मणि द्वितीया इत्यनेन देवदत्तस्य द्वितीया विभक्तिः विधीयते. अनेन रामः कृष्णं गृहं गमयति इति वाक्यं सिद्ध्यति.
मया तु वाक्यमेव परिवर्तितं, क्षम्यतां. तत्र
तत्र उदाहरणमस्ति, गत्यर्थकधातवः अत्र दृष्टान्तः अस्ति. तु अत्र धातुः अस्ति गम् धातु, गमनार्थक गमनार्थके अस्ति. तु गम् गम् तु अत्र अण्यन्त अवस्थायां शुद्ध अवस्थायां धातोः शुद्ध अवस्थायां वाक्यमस्ति देवदत्तः विद्यालयं गच्छति. तु अत्र गम् धातु धातोः लट्लकारे कर्त्रार्थे गच्छति इति रूपमस्ति. तु अत्र लट्लकारे गच्छति इति रूपमस्ति, कर्त्रार्थे अस्ति. तु अत्र देवदत्तः अत्र कर्ता अस्ति. तु कर्ता अत्र अभिहितः अस्ति, तस्मात् कारणात् प्रथमाविभक्त्याम् अस्ति. तु देवदत्तः विद्यालयं गच्छति इति अन्यन्त अवस्थायां वाक्यमस्ति. तु अत्र यदि गम् धातुतः निच् प्रत्यय योजयामः चेत् प्रेरणार्थे, तु अत्र हेतुमति च इति सूत्रेण, तु तर्हि गम् धातोः निच् प्रत्ययस्य योजनेन गमि इति नूतनधातुः निष्पन्नः भवति, यत् आतिदेशिकधातुः अस्ति. तु तस्य लट्लकारे प्रथमपुरुषे एकवचने गमयति इति रूपमस्ति. तु अत्र गमयति इति यत् क्रियापदमस्ति तस्य अत्र कर्ता द्विविधा भव अस्ति. अत्र प्रयोजककर्ता अस्ति, प्रयोज्यकर्ता अपि अस्ति. सो अत्र य देवदत्तः यः अन्यन्य अवस्थायां कर्ता अस्ति, तु अत्र गमयति इति धातोः कृते प्रयोज्यकर्ता अस्ति. तु अत्र गमयति इति गत्यर्थे अस्ति. तु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण देवदत्तः यः प्रयोज्यकर्ता अस्ति सः कर्मपदं कर्मसंज्ञा प्राप्नोति. तस्मात् कर्मणि द्वितीया इति सूत्रेण तस्य द्वितीया विभक्तिरूपं भवति. तु अत्र हा तावदेव. तु अत्र
तत्र एकवारं वदतु किम् उक्तं किम् अनुक्तम् इति वदतु.
तु अत्र अत्र वाक्यद्वयमस्ति. तु ण्यन्तावस्थायां किम् अनुक्तम् इति वदामि वा
ण्यन्तावस्थायां किम् अनुक्तम् इति वदतु.
ण्यन्त अवस्थायां कर्म अनुक्तम् अस्ति.
किम् उक्तम् इति वदतु प्रथमतया.
ण्यन्त अवस्थायां कर्ता उक्तमस्ति.
कः उक्तः?
प्रयोजककर्ता उक्तः अस्ति.
अस्माकम् उदाहरणे
यज्ञदत्तः प्रयोजककर्ता अस्ति, सः उक्तः अस्ति.
केन उक्तः?
गमयति इति क्रियापदम् अस्ति, तु अत्र तिङ्प्रत्ययः अत्र कर्त्रार्थे अस्ति. तेन तिङ्प्रत्ययेन उक्तः अस्ति.
अतः यज्ञदत्तस्य
प्रथमाविभक्तिरूपम् अस्ति.
इदानीम् अग्रे
तत्पश्चात् अत्र देवदत्तः अस्ति. देवदत्तः अन्यन्त अवस्थायां देवदत्तः कर्ता अस्ति. गमयति इति धातु गम् धातु गत्यर्थके अस्ति. तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणि कर्ता स णौ इति सूत्रेण देवदत्तः कर्मसंज्ञा प्राप्नोति. तत्पश्चात् कर्मणि द्वितीया इति सूत्रेण तस्य द्वितीया विभक्ति भवति.
विद्यालयम् इत्यस्य का गतिः?
तु अत्र विद्यालयम् इति अनुक्ता अस्ति. देवदत्तेन यत् गमनक्रिया कृतम् अस्ति तस्य आश्रयः तस्य फलस्य आश्रयः विद्यालयः अस्ति. तु तत्र तस्य कर्मसंज्ञा कर्मकारकं भवति. तु द्वितीय कर्मणि द्वितीया इति सूत्रेण तस्य अपि द्वितीया विभक्ति भवति.
अत्र पश्यन्तु कर्मद्वयम् अस्ति, द्वयमपि अनुक्तम् अस्ति. सामान्यतया तत्र विद्यालयम् इति कर्म अस्ति एव. देवदत्तः इति विशेषतया कर्मसंज्ञायाः विधानम् अस्ति, यतोहि गत्यर्थकधातुः इति कृत्वा, गमयति गत्यर्थकः इति कृत्वा देवदत्तस्य विशेषतया कर्मसंज्ञा अनुक्तः इति कृत्वा द्वितीया विभक्तिः भवति. तर्हि कर्मपदद्वयम् अस्ति अत्र. यत्र यत्र गतिबुद्धिप्रत्यवसानार्थकः इत्यनेन कर्मसंज्ञा भवति तत्र कर्मद्वयं भवति. एकः तु मुख्यकर्म अस्ति, अन्यत् तु प्रयोज्यकर्म, प्रयोज्यकर्तुः कर्मसंज्ञा. पश्यन्ति वा?
आम्.
उभयत्र कर्मणि द्वितीया इत्यनेन अनुक्तत्वात् उभयत्र द्वितीया विभक्तिः.
अत्र वयं देवदत्तः अनुक्तकर्ता अस्ति, अतः तृतीया विभक्ति
भवेत्
किन्तु गतिबुद्धिप्रत्ययवसाने तत् तेन सूत्रेण अपवादत्वेन द्वितीया भवति इति चिन्तितुं शक्नुमः किम्?
सत्यं सत्यम्.
अतः एव रामेण पाठयति इति आसीत् पूर्वे पाठदातु इति एतत् सूत्रेण उक्तमस्ति. अतः
वस्तुतः तत्र किम् उच्यते इति चेत् प्रयोज्यकर्ता वस्तुतः प्रयोज्यकर्तुः अस्मिन् वाक्ये प्रयोज्यकर्ता एव तत्र कर्म अस्ति वस्तुतः. तत्र यज्ञदत्तः गमयति, किमर्थं गमयति, तत्र यज्ञदत्तस्य कर्म किम्? यदि यज्ञदत्तः गमयति तर्हि तस्य गमनक्रियायाः तत्र कर्म किम्? देवदत्तः एव कर्म, देवदत्तः एव कर्म, अतः तस्य कर्मसंज्ञा भवति एव, सामान्यतया तस्य कर्मसंज्ञा भवति. कर्तृप्सितमं कर्म इति सूत्रेण तस्य कर्मसंज्ञा भवति, परन्तु अत्र विशिष्टसूत्रमस्ति, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासणौ इति विशिष्टसूत्रमस्ति. तत् सूत्रं किं वदति इति चेत्, केवलं गत्यर्थकानां, केवलं बुद्ध्यर्थकानां, केवलं प्रत्यवसानार्थकानां, शब्दकर्मकाणाम्, अकर्मकाणाम् इति वदति इति खलु. तर्हि इदं सूत्रं वस्तुतः नियमसूत्रमस्ति, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् इति सूत्रं नियमसूत्रमस्ति. इत्युक्ते तत् सूत्रं नियमयति, सामान्यतया यत्र कर्मसंज्ञा भवति प्रयोज्यकर्तुः, यतोहि गमयति इति गमयति अथवा यः यत्किमपि क्रियापदं भवतु निजन्तप्रसङ्गे, प्रेरणार्थे निजन्तकप्रसङ्गे, तत्र प्रयोज्यकर्ता तु कर्म एव भवति. परन्तु इदं सूत्रम्, इदं विशिष्टसूत्रम् आगत्य वदति सर्वेषां कर्मत्वं नास्ति, केवलम् एतेषामेव कर्मत्वम् इति उक्तत्वात् तत्र प्रयोज्यकर्तुः कर्मत्वं न भवति सामान्यतया. केवलम् एतेषामेव योगे प्रयोज्यकर्तुः कर्मत्वम्, अन्यत्र सर्वत्र तु तत्र प्रयोज्यकर्तुः अनुक्तत्वात् तृतीया एव, कर्मत्वमेव न भवति तत्र. यतोहि इदं सूत्रं नियमसूत्रमस्ति, नियमयति इत्युक्ते बौण्ड्रीं, सीमां स्थापयति.
अतः इदानीं कथं चिन्तनीयं, तत्र सामान्यतया अनुक्त्वात् तृतीया भवति
इति वक्तव्यम्, इति वक्तव्यम्. यतोहि इदं सूत्रमस्ति खलु, इदं विशिष्टसूत्रमस्ति, नियमयति, केवलम् एतेषामेव कर्म भवति इति नियमयति इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं न भवति सामान्यतया. यत्र कर्मत्वं न भवति तत्र तु तृतीया एव.
इत्युक्ते द्वे चिन्तने अपि सम्यक् वा, सामान्यतया अनुक्त कर्ता अस्ति चेत् तत् तृतीया भवति, किन्तु एतेन सूत्रेण अपवादत्वेन कर्म भवति, अपि च
इति सामान्यव्यवहारः, इति सामान्यतया फलितार्थरूपेण भवति, वक्तुम् इच्छति चेत् वक्तुं शक्नोति, परन्तु वस्तुतः अपवादः इति नास्ति अत्र. अत्र कर्तृ तृतीया भवति तस्य अपवादरूपेण अत्र कर्मत्वं भवति इति नास्ति, वस्तुतः कर्मत्वं भवति, सर्वेषां कर्मत्वं भवति. तदानीम् अनेन सूत्रेण सीमां स्थापयित्वा केवलम् एतेषाम् एव कर्म इति उक्तत्वात् अन्येषां कर्मत्वं नास्ति, अतः इदं सूत्रम् अपवादसूत्रम् इति वक्तुं न शक्यते. इदं तु नियमसूत्रं, परन्तु यदि यदि भवती वक्तुमिच्छति, सामान्यतया प्रयोज्यकर्तुः तृतीया विभक्तिः भवति, एतेन सूत्रेण द्वितीया विभक्तिः भवति इति सारांशरूपेण वक्तुमिच्छति चेत् समीचीनम्.
अस्तु, इदानीं क्षम्यतां, निश्च प्रत्यय नास्ति, किन्तु व्याकरणे तु प्रायः षोडश द्विकर्मकधातवः सन्ति सन्ति खलु, तत्र किं भवति? तत्र अपि इदानीम् अहं गुरुं प्रश्नं पृच्छामि, तत्र गुरुमपि कर्म पदमस्ति, प्रश्नमपि कर्मपदम् अस्ति.
तत्र तत्र तु व्यवस्था यथा पूर्वं, तत्र न कोऽपि क्लेशः. अस्माकं न्यन्तावस्थायामपि तादृशकर्मद्वयं भवति, परन्तु इदानीम् इदानीं प्रयोज्यकर्तुः कर्मत्वं न वा इत्येव विषये चिन्तनं. यदि भवती पृच्छति इति दातुं स्वीकरोति, तत्र तु गतिबुद्धि इति सूत्रस्य प्रसक्तिः एव नास्ति. अतः सः गुरुं प्रश्नं पृच्छति, इदानीं तत्र रमेशेन सः रमेशेन तेन गुरुं प्रश्नं पृच्छ्यते अथवा पृच्छयति रमेशेन तेन गुरुं प्रश्नं पृच्छयति इति अस्ति. तेन इति तृतीया तत्र भवति, तत्र न कोऽपि क्लेशः.
अस्तु, किन्तु साधारणतया निच् प्रत्यय नास्ति, तत्र द्विकर्मकधातुः अस्ति चेत् साधारणतया कर्मपदं द्वयम् अस्ति चेत् तत्र कर्मणि द्वितीया इति एव कार्यं करोति.
न तत्र तु तत्र प्रधानकर्मणः कर्मणि द्वितीया इत्यनेन कार्यं भवति, परन्तु गौणकर्म अस्ति खलु, यत्र अन्य गौणकर्मणः तु तत्र भिन्नसूत्रेण तत्र द्वितीयाविभक्तिः भिन्नसूत्रेण कर्मसंज्ञा भवति तस्य. कर्मणि द्वितीया इत्यनेनैव द्वितीया, परन्तु भिन्नसूत्रेण कर्मसंज्ञा भवति तत्र. अस्तु अत्र स्थगयामः, समयः अतीतः, अत्र स्थगयामः.
पृच्छयति तत्तु पृच्छयतेन
पृच्छ्यते कर्मणि प्रयोगे
आत्मनेपदी नास्ति
कर्मणि प्रयोगे
पृच्छयति.
अस्तु तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः.
धन्यवादः.